हेलो
हेलो,
सलाम दे
वही सलाम ना नाथ मान्य
लेने
बस ये तो नहीं थ्री रिंग ना
दे
अच्छे नाथ लगा दें था दूलूली
नकाब
आंधे काशरी इस तरह से कब सन्ना पर ना सिम
रशे
कार्ड इजाज चुनोगे साचू बेला चुनना पर
रशे
है ना
कैसा
यारी ना वही लिंगेजा बेला में था ना रिप्लेसमेंट ना वही डाटिक ना हो बोलो दाईया
बफीत
करना ना
बफीत दंया सुनने पर ऐसा गजा सिम कार्डो माले सुना
ओके
आउंगे बदर रजका सुनना मत कर
आहा እንዴት በእናንተ ስም ተገዛ?
በፊት አቅራቢው ነበረ ለከስተመሩ ማሟላት የነበረበት
እሺ
ማሽን ስናቀር ለእያንዳንዱ ከስተመር ለእያንዳንዱ ማሽን እኛ ነበር የምናቀርበው። አሁን ግን እሱ ቀርቶ ራሱ ደንበኛ በሰጠናችሁ ሲም ካርድ እሱ ይወጣና ሌላ በእናንተ በድርጅታችሁ በምትገዙ ሲም ካርድ ማሽናችሁ ላይ ይገባል ማለት
ይተካል።
ነው።
ኦኬ እሺ
በንግድ ፈቃዶች ስም ማለት ነው።
እሺ እሺ
የካሽ ሪጅስተር ሲም ካርድ ብላችሁ ነው የምትገዙ።
እሺ እሺ
ሲሟ 30 ብር ናት። የአመት 350 ብር እጻ ፓኬጅ እንደ ዋይፋይ ዳታ ትከፍ ያለች ማለት ነው። የአመት
እሺ እሺ
ንግድ ፍቃድ ይጠይቁሻል። መታወቂያሽን፣ ስራ አስኪያጅ ከሆንሽ ተወካይ ከሆንሽ ደግሞ ህጋዊ ውክልናሽን ኦሪጂናሉን እስካን እስካን ስለሚያደርጉ ከድርጅታችሁ ደግሞ ደብዳቤ ሊጠይቋት ይችላሉ።
እሺ እሺ
እና ማሽንና ደብተር ይዘሽልን ትመጫለሽ። እሱ
የማሽን ደብተሩን እና እንትኑ
ካሽ
ማሽኑማ እናንተ
ሪጅስተር
ጋር ነው
እኛ ጋር
እናንተ
ያለ።
ጋር አዎ አዎ ለዛ ነው ፖስት
እሺ ማ
እሺ ቴንክ ዩ
እሺ
ባይ
ባይ